सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। अलसस्य कुतो विद्या, अविद्यस्य कुतो धनम्, अधनस्य कुतो मित्रम्, अमित्रस्य कुतः सुखम्। इत्युक्ते अलसाः विद्यां न प्राप्नुवन्ति, विद्यया विना धनसम्पादनं क्लिष्टकरं भवति। इत्युक्ते विद्या नास्ति चेत् धनं न प्राप्यते। अस्माकं पार्श्वे धनं नास्ति चेत् कोऽपि मित्रम् अस्माकं समीपे न आगच्छति एव इति तु वयं जानीमः एव। अपि च यदि मित्रं नास्ति चेत् जीवने सुखं कुतः आगच्छति इति सुभाषितकारः अस्मान् पृच्छतु। अपि च अन्ततो गत्वा विद्या कथं सुखं ददाति, विद्यया वयं किं किं प्राप्तुं शक्नुमः इति अस्मिन् श्लोके सुभाषितकारः वदति। यदि वयम् अलसाः भवामश्चेत् विद्यार्जनं तु असाध्यं भवति। तदर्थं वयं सर्वे सक्रियाः भूत्वा नित्यं संस्कृताध्ययनं कुर्मः चेत् नूतनान् विषयान् ज्ञात्वा सुखम् अनुभवितुं शक्नुमः। तदर्थं संस्कृताध्ययनार्थं भवन्तः सर्वे सिद्धाः इति अहं चिन्तयामि। सम्यक्, अधुना वयं किञ्चित् संस्कृताध्ययनं कुर्मः। अत्र गते सप्ताहे वयं किं कृतवन्तः इत्युक्ते वयं किञ्चित् पठितवन्तः कस्मिन् विषये शिष्टाचाराः के, अथवा नित्यजीवने के के शिष्टाचाराः आचरणीयाः इत्यस्मिन् विषये वयम् एकं सम्भाषणं पठितवन्तः, अपि च किञ्चित् अवगतवन्तः च। भवन्तः सर्वे अपि तान् शिष्टाचारान् अनुसरन्तः सन्ति इति अहं चिन्तयामि। ऐ थिङ्क् वी हेव् लर्न्ड् सम् एटिकेट् लास्ट् वीक् बै रीडिङ्ग् दट् कान्वर्सेशन् अण्ड् अस्यूमिङ्ग् दट् यु आर् आल् फालोयिङ्ग् दोस् rules or etiquette, like saying good morning, suprabhatam, shubharatrihi, namaskarah, ete sarve api shishtacharah. Tesham vishe vayam kinchit adhitavantah gate saptahe. Api cha abhyasa pustake navavimshe pute tatra ekam abhyasam krutavantah. Abhyasah kaha ichukte अभ्यासपुस्तके नवविंशे पुटे, इत्युक्ते पेज् 19, इन् दट् पेज् गते सप्ताहे वयं किञ्चित् पठितवन्तः। तत्र कर्मपदम् इत्युक्ते किं, तस्मिन् पुटे यदि वयं भवान् कुत्र गच्छति इति प्रश्नं पृच्छामश्चेत् तस्य उत्तरं किं भवति, किमपि विद्यालयं वा विद्यालयः वा किमपि ग्रन्थालयः वा इति तथा उत्तरं भवति। तत्र प्रश्नस्य उत्तरम् एव गन्तव्यस्थानं, तत्र गन्तव्यस्थानमस्ति, अतः एव तत्र वाक्यं सकर्मकवाक्यं भवति, अपि च तस्मिन् वाक्ये कर्मपदम् अपि अस्ति। इत्युक्ते कर्मपदम् इत्युक्ते किम् इति वयं ज्ञातवन्तः गते सप्ताहे। अपि च यदि वाक्ये त्रीणि पदानि सन्ति चेत् एकं कर्तृपदं, कर्मपदम् अपि च क्रियापदं, त्रीणि पदानि सन्ति चेत् तत्र यः कार्यं करोति सः कर्ता, तेन यत् कार्यं कृतं सा एव क्रिया, अपि च तस्याः क्रियायाः फलं, क्रियायाः फलम् एव कर्म इति वयं ज्ञातवन्तः। इत्युक्ते कर्मपदम् इत्यस्मिन् विषये किञ्चित् वयं ज्ञातवन्तः तत्र नवविंशतितमे पुटे। अधुना वयं किं कुर्मः इत्युक्ते किञ्चित् अत्र कादम्बरी भगिनी, अहं भवती वदतु, अहं कांश्चन प्रश्नान् पृच्छामि, वदति वा, उत्तरं ददाति वा? उत्तमम्. अत्र भवती अद्य किं पठितवती, भवती किं पठति?
पाठं पठामि.
किं पाठं पठितवती?
संस्कृतपाठं पठितवती.
संस्कृतपाठं पठितवती. अपि च भवती किं पिबति अद्य, किं पीतवती?
अहं जलं पीतवती.
जलम्, उत्तमम्. अपि च भवती किं खादितवती?
अहं फलं खादितवती.
फलं खादितवती इत्युक्ते एतेषु वाक्येषु अत्र किम् इति प्रश्नं पृच्छामश्चेत् तस्य उत्तरं भवति, तत् उत्तरम् एव वयं कर्मपदम् इति वदामः. भवती यदि भवती ग्रन्थं पठितवती चेत् अत्र ग्रन्थः अस्ति, परन्तु अहं ग्रन्थं पठामि इति वदामः. इत्युक्ते तस्मिन् वाक्ये ग्रन्थम् इति पदं कर्मपदम्. किम् इत्यस्य उत्तरं मिलति चेत् तत् वाक्यं सकर्मकवाक्यं, यदि तस्य उत्तरं न मिलति चेत् तत् वाक्यम् अकर्मकवाक्यम् इति वदामः. इत्युक्ते तस्मिन् वाक्ये कर्मपदम्, अकर्मकवाक्ये कर्मपदं न सम्भवति. तथा एव भवती अद्य कुत्र गतवती?
अहं पाठशालां गतवती.
पाठशालां गतवती, उत्तमम्. अस्मिन् वाक्ये कर्मपदं किम्?
पाठशालां.
उत्तमम्. पाठशालाम् इति पदस्य विभक्तिः का?
द्वितीया विभक्ति.
उत्तम, द्वितीया विभक्तिः. इत्युक्ते तस्मिन् विषये वयं किञ्चित् पठितवन्तः. तथा एव भवती किं दृष्टवती अद्य, भवती किं पश्यति? अहं वदामि, अहं किं पश्यामि इति वदामि. मम पार्श्वे एकः ग्रन्थः अस्ति, अहं ग्रन्थं पश्यामि. अपि च मम पार्श्वे एका दूरवाणी अस्ति, अधुना अहं दूरवाणीं पश्यामि.
अहं चित्रं पश्यामि.
उत्तमम्, उत्तमम्. इत्युक्ते अत्रापि पश्यति इति, पश्यामि अथवा पश्यति, उत्तमपुरुषे पश्यामि इति वदामः, प्रथमपुरुषे पश्यति. किं पश्यामि इत्यस्मिन् उत्तरं कस्यां विभक्त्यां भवति?
द्वितीया विभक्ति.
द्वितीया विभक्तौ भवति. इत्युक्ते किम् इति प्रश्नस्य उत्तरम् एव अत्र अस्मिन् वाक्ये कर्मपदं भवति. अधुना वयं किं कुर्मः इत्युक्ते अत्र गृहपाठविषये एकम् अभ्यासं दत्तवती. अत्र सर्वे त्रिंशत्तमे पुटे पश्यन्तु, त्रिंशत्तमं पुटं पश्यन्तु. अत्र पेज् 30, वि आर् गोयिङ्ग् टु डु द एक्ससैज् नौ. पेज् 30, त्रिंशत्तमं पुटं प्रति गच्छामः. भगिनी अत्र 7.2 भागे अत्र उपरि एका सूचना अस्ति, सूचनां पठतु.
अत्र एकं सम्भाषणम् अस्ति, सम्भाषणं पठतु. आवरणे विद्यमानानां शब्दानाम् उचितरूपाणि रिक्तस्थले लिखतु.
रिक्तस्थले लिखतु. अत्र प्रथमं वाक्यं वदतु, अत्र एकं सम्भाषणम् अस्ति, अस्मिन् वाक्ये कानिचन पदानि सन्ति, भवती वक्तुं शक्नोति वा एकैकस्य पदस्य विभक्तिः का इति वदति वा? प्रयत्नं करोतु.
अत्र अव्ययम् एकं द्वितीया विभक्ति,
उत्तमं.
सम्भाषणं द्वितीया विभक्ति.
द्वितीयविभक्ति वा अत्र? पश्यतु, अत्र भवती यत् चिन्तितवती तत्तु सम्यक् एव, परन्तु भगिनी अत्र अन्तिमं पदमस्ति अस्ति इति पदमस्ति. अस्ति इति पदं तस्मिन् वाक्ये क्रियापदं, परन्तु अत्र एकः नियमः अस्ति. नियमः कः इत्युक्ते, अस् धातुः अकर्मकधातुः. अतः सम्भाषणम् इति पदं यदि अस् धातुः अकर्मकधातुः अस्ति चेत् तस्मिन् वाक्ये कर्मपदं न सम्भवति. अधुना ऊहां करोतु, सम्भाषणम् इति पदं कस्मिन् लिङ्गे भवति?
नपुंसकलिङ्ग.
उत्तमं. तस्य विशेषणं किं भवति? उत्तमम्. एकम् अनन्तरं द्वितीयं वाक्यं पठतु.
सम्भाषणं पठतु.
तस्मिन् वाक्ये सम्भाषणम् इति पदं तस्मिन् विषये वदतु.
द्वितीया विभक्ति.
द्वितीया विभक्ति इत्युक्ते कर्मपदम्. अत्र कर्तृपदम् अस्ति वा? कर्तृपदम् अस्ति वा? अत्र कर्तृपदं परन्तु अत्र न लिखितमस्ति, परन्तु वयं वक्तुं शक्नुमः. वि केन् इमेजिन् द कर्तृपदम् इन् दट् सेण्टेन्स्. कथम् ऊहां कर्तुं शक्नुमः? अत्र क्रियापदमस्ति पठतु, पठतु इति क्रियापदमस्ति चेत् तत्र किं कर्तृपदं किं लेखितुं शक्नुमः? चिन्तयतु, ऊहां करोतु. उत्तमं. भवान् अथवा भवान् अथवा भवती. अत्र यद्यपि कर्तृपदं न दत्तमस्ति, परन्तु वयं लेखितुं शक्नुमः. भवती, अहं वदामि, भवती सम्भाषणं पठतु इत्येव अत्र दत्तमस्ति. उत्तमम्. तृतीयं वाक्यं पठतु.
आवरणे विद्यमानानां शब्दानां उचितरूपाणि रिक्ते स्थले लिखतु.
उत्तमम्. अधुना वदति वा आवरणे कुत्र लेखनीयम्? अत्र लिखतु इति पदं दत्तमस्ति. लिखतु इति पदं लोट्लकारे अस्ति. कुत्र लेखनीयम्?
रिक्ते स्थले.
उत्तमं. रिक्ते स्थले लेखनीयं. रिक्ते स्थले कुत्र इति वदामश्चेत् तत्र साधारणतया, परन्तु अत्र एकः नियमः अस्ति. तत् किमित्युक्ते, कुत्र अस्ति इति प्रश्नं पृच्छामश्चेत् तदा सप्तमी विभक्तौ तस्य उत्तरं भवति, परन्तु कुत्र गच्छति इति वदामश्चेत् तदा द्वितीया विभक्तौ तस्य उत्तरं भवति. परन्तु अत्र कुत्र लेखनीयं? रिक्तस्थले लेखनीयम्. किं लेखनीयम्?
उचितरूपाणि.
उत्तमम्. किम् इति प्रश्नं पृच्छामश्चेत् उत्तरं मिलति चेत् तस्य विभक्तिः का?
द्वितीया विभक्ति.
उत्तमं. तावदेव तावदेव. अनन्तरमत्र विद्यमानानां शब्दानाम् इति पदमस्ति, यदि भवती वक्तुं शक्नोति चेत् वदतु, नो चेत् सम्यक् एव. अत्र भवती जानाति एव शब्दस्य अत्र शब्दस्य इति षष्टि एकवचनं, परन्तु अत्र शब्दानाम् इति पदं षष्टि बहुवचनं. अपि च शब्दानाम् इति पदस्य विशेषणमेव विद्यमानानाम् इत्युक्ते अत्र आवरणे विद्यमानानां शब्दानाम् उचितरूपाणि लिखतु. कुत्र लिखतु? कृत्यस्थले लिखतु. अत्र पिता पुत्रयोः सम्भाषणं दत्तमस्ति. अधुना वयं सम्भाषणं पठित्वा किञ्चित् अभ्यासं कुर्मः. भवती पिता तत् वाक्यं पठतु. लक्ष्मी भगिनी भवती पुत्रः इति वाक्यं पठतु. करोतु.
पुत्र पाठं पठतु.
न न तथा न भगिनि, कादम्बरी भगिनी. अत्र कथं पठनीयम् इत्युक्ते प्रथमतया तत्र यद् दत्तमस्ति तत् पठतु, अनन्तरं परिवर्तनं कृत्वा पठतु. तथा कुर्मः.
पिता पुत्र पाठः पठतु. पुत्र पाठं पठतु.
किमर्थं तथा, किमर्थं भवती तथा पाठम् इति उक्तवती?
द्वितीया विभक्ति.
उत्तमम्. अत्र पठतु इति क्रियापदमस्ति, पाठः इति पदम् आवरणे दत्तमस्ति. पाठः इति पदं, तस्य विभक्तिः का भगिनि? पाठः प्रथमा विभक्ति. अत्र पिता वदति, पिता पुत्रं प्रति वदति. किं वदति? पुत्र पाठं पठतु. अत्र पुत्र इति पदं दत्तमस्ति, तस्मिन् विषये वदतु. पुत्र कोऽपि जानाति वा पदं, विभक्तिः का?
प्रथमा विभक्ति.
प्रथमा एव, परन्तु भगिनी अत्र सम्बोधना प्रथमा इति वदामः. किमर्थं? पिता पुत्रं प्रति वदति, हे पुत्र अधुना पाठं पठतु. यथा भवत्याः माता अपि यदा कदाचित् वदति वा तथा? भगिनी यदा कदापि भवत्याः माता अपि पृच्छति वा कादम्बरी पाठं पठतु इति वदति वा? उत्तमम्. उत्तमम्. लक्ष्मी भगिनी करोतु द्वितीयं वाक्यं.
पुत्रः अहं पाठः पठितुं न शक्नोमि. अहं पाठं पठितुं न शक्नोमि.
अत्रापि अत्र पश्यतु भगिनि, अहं पाठं पठितुं न शक्नोमि. अत्र पठितुम् अन्यत् पदं, नूतनं पदमस्ति. तस्मिन् विषये वयम् अग्रे गत्वा पठिष्यामः. तत्र पठितुम् इति पदं तुमुन्नन्तपदम् इति वदामः, तुमुन् प्रत्ययः इति वदामः. अत्र पुत्रः वदति अहं पाठं पठितुं न शक्नोमि इति वदति. किमर्थं तथा वदति?
I don't know to read.
भगिनि कादम्बरी भगिनि करोतु. किमर्थं भवान् पाठं पठितुं न शक्नोति इति पिता पृच्छति. लक्ष्मी भगिनि.
पुत्रः अहं विद्यालयः न गतवान्. अहं विद्यालयं न गतवान्.
अस्मिन् वाक्ये कर्मपदं किम्?
विद्यालयं.
अहं, सः कुत्र न गतवान्? सः विद्यालयं न गतवान्, तदर्थं सः पठितुं न शक्नोति. अनन्तरं
भवतु अहं भवान् पाठयामि. भवतु अहं भवन्तं पाठयामि.
भगिनी कुत्र दृष्टवती भवती भवान् शब्दस्य रूपपरिवर्तनं कथं कृतवती? अत्र अधोभागे कानिचन पदानि, अधोभागे अत्र कानिचन पदानि दत्तानि. तेषु अन्यतं पदम् एकं पदं चित्वा तत्र लेखनीयं. पुत्रः पिता किं वदति, भवतु अहं भवन्तं पाठयामि. सर्वे पश्यन्तु, सर्वे शृण्वन्तु, अत्र पाठयामि इति नूतनं पदमस्ति. इदानीं पर्यन्तं वयं केवलं पठामि, अहं पाठं पठामि इति एव वयं जानीमः, परन्तु अत्र एकं नूतनं पदम् अस्ति, पाठयामि. पाठयामि इत्युक्ते किं, कः वदति? पाठयामि उत्तमं, तदेव इत्युक्ते अत्र अहं संस्कृतम् अधुना अहं मम विषये एव वदामि. ऐ एम् टाकिङ्ग् अबौट् मै सेल्फ्. अहं प्रातःकाले संस्कृतं पठामि, परन्तु अधुना सार्ध अष्टवादने अहं संस्कृतं पाठयामि, भवतः पाठयामि. इत्युक्ते अहं संस्कृतम् अधुना पाठयामि. अहम् अन्नं खादामि, परन्तु अन्नं अहं मम शिशुम् अन्नं खादयामि. तत्र खादयामि, पाठयामि, एतानि पदानि निजन्तपदानि, निच् प्रत्ययान्तरूपाणि इति वदामः. एकं नूतनं पदं तदा तत्र पुत्रः पिता किं वदति, अहं भवन्तं पाठयामि. इत्युक्ते आङ्ग्लभाषायां किं, कः वदति? कादम्बरी भगिनी वदतु, अनुवादं करोतु. अहं भवन्तं पाठयामि.
अहं ऐ विल् टीच् यू.
ऐ विल् टीच् यू. अनन्तरम् अग्रिमं सम्भाषणं पठतु.
पुत्रः सत्यं भवान् अहं पाठयति. सत्यं भवान् मां पाठयति.
अत्र भगिनी, अत्र प्रश्नवाचकवाक्यम् एतत्. पुत्रः आश्चर्येण पितरं पृच्छति, किं पृच्छति? सत्यं भवान् मां पाठयति. आश्चर्येण सः पितरं पृच्छति, आर् यु गोयिङ्ग् टु टीच् मी. उत्तमं. तथा पिता किं वदति?
यस् ऐ एम् गोयिङ्ग्.
पाठयामि.
अनन्तरं
पुत्री, तात् अहम् अपि पाठयतु.
अत्र प्रथमं पदं पुनः उच्चारयतु भगिनि. प्रथमं पदं किं?
तात.
तात. संस्कृतभाषायां तात इत्युक्ते कः जानाति?
फादर.
तात इत्युक्ते फादर्. अन्यं पर्यायवाचकपदं तात अथवा पिता, द्वयोः अर्थः समानः एव. पुत्री, तदा एव यदा पिता पुत्रयोः सम्भाषणं अस्ति तदा एव तत्र पुत्री अपि आगच्छति. पुत्री आगत्य किं वदति? तात माम् अपि पाठयतु. वदतु.
तात माम् अपि पाठयतु.
इत्युक्ते भगिनी, अत्र माम् इति पदं कुतः आगच्छति? कुतः भवती स्वीकृतवती?
पुत्री.
वेर् डिड् यु गेट् दट् वर्ड् माम्? माम्
सर्वान् you've given the treat, so from there.
इत्युक्ते अधोभागे कोष्टकात्. उपरि सूचना दत्ता. अत्र सूचनायां का इत्युक्ते आवरणे विद्यमानानां शब्दानाम् उचितरूपाणि अधोभागे दत्तानि. उत्तमं. पुत्री किम् उक्तवती? तात भवान् माम् अपि पाठयतु इति पृष्टवती. तदा पिता किं वदति?
अस्तु, भवती अपि पाठयामि. अस्तु भवतीम् अपि पाठयामि
भवतीम् अपि पाठयामि उत्तमम् अत्र भवतीम् इति पदं कर्मपदम् पिता कां पाठयितुमिच्छति अधुना पुत्रीं पाठयितुं पुत्रीं पाठयितुम् इच्छति अपि च पुत्रमपि पाठयितुम् इच्छति अनन्तरं वदतु अनन्तरं वदतु
पुत्रः कदा पाठयति
कदा पाठयति
इदानीं भवान् पाठयामि इदानीं भवन्तं पाठयामि
इदानीम् इत्युक्ते
नौ
अन्यं पदम् अस्ति अधुना अधुना अथवा अथवा इदानीं द्वयोः अर्थः समानः इदानीम् एव पाठयामि पिता वदति इदानीम् एव भवन्तं पाठयामि इति वदति तदा पुत्रः किं वदति
पुत्रः अनुजा कदा पाठयति अनुजां कदा पाठयति
अनन्तरं
तां सा सायङ्काले पाठयामि तां सायङ्काले पाठयामि
भगिनी अत्र भवती पश्यति वा अत्र कदा पाठयति कदा वयं गते सप्ताहे एव वयं पठितवन्तः कदा इत्यस्मिन् विषये अनुजां कदा कदा पाठयति कदा इति प्रश्नम् इदानीम् अथवा सायङ्काले इत्युक्ते समयः अनुजां कदां कदा पाठयति इत्युक्ते अनुजां सायङ्काले पाठयामि परन्तु भवन्तम् इदानीम् एव पाठयामि इति पिता वदति अपि च
वदतु वदतु कः पाठः पाठयामि वदतु कं पाठं पाठयामि
कं पाठं पाठयामि इत्युक्ते कः शब्दस्य द्वितीयरूपं कं पाठः इति पदस्य द्वितीयरूपं पाठं पाठम् उत्तमम् इत्युक्ते अत्र पाठयति अथवा पठति पाठयामि एतानि क्रियापदानि सकर्मकक्रियापदानि तत्र कर्मपदं सम्भवति एतत् वाक्यं सकर्मकवाक्यम् इति वदामः अग्रिमं पठतु
पुत्रः एषः पाठः पाठयतु एतं पाठं पाठयतु
पिता सर्वे पाठाः पाठयामि सर्वे पाठान् पाठयामि
तत्र किञ्चित् अत्र सर्वे इति पदस्य रूपपरिवर्तनं कृत्वा सम्यक् रीत्या वदतु भगिनि अत्र न दत्तमस्ति अस्मिन् प्रकोष्ठे अत्र अस्मिन् कोष्टके सर्वपदस्य सर्वशब्दस्य रूपाणि न दत्तानि अत्र कोऽपि जानाति वा अत्र
सर्वान्
लक्ष्मी भगिनी भवती किञ्चित् समीकृत्य वदतु तत् सत्यं तत् सम्यक् एव अत्र सर्वे इति पदस्य बहुवचनरूपं किं भवति
सर्वाणि
अत्र पश्यतु भगिनी पाठः पाठः इति पदं पुंलिङ्गपदं पाठाः वचनं किम् पाठाः बहुवचनरूपं बहुवचनरूपं परन्तु पाठाः इति बहुवचनरूपं प्रथमाविभक्तौ अस्ति परन्तु तत्तु तस्मिन् वाक्ये कर्मपदं भवति तदर्थमेव पाठान् पाठयामि पाठान् पाठयामि इति भवति. तथा एव तस्मात् पाठाः इति पदात् पूर्वं यत् सर्वनामपदमस्ति तस्यापि द्वितीयाविभक्ति बहुवचनरूपं तत्र आवश्यकम्. परन्तु अत्र सर्वशब्दः त्रिषु लिङ्गेषु भवति. पुंलिङ्गे सर्वः, सर्वौ, सर्वे. स्त्रीलिङ्गे सर्वा, सर्वे, सर्वाः. नपुंसकलिङ्गे सर्वं, सर्वे, सर्वाणि इति भवति. परन्तु अत्र पाठाः इति पदस्य विशेषणं तत् सर्वनामपदं दत्तमस्ति. सर्वे इति पदं द्वितीयविभक्तौ किं भवति? लक्ष्मीभगिनी वदतु पुनः. भवती उक्तवती
सर्वः, सर्वौ, सर्वे, रैट्?
पुंलिङ्गे द्वितीयविभक्ति अन्तः. किमर्थं चेत् अस्मिन् वाक्ये तत् पदं कर्मपदम्.
सर्वान्,
सर्वान् उत्तमं. कादम्बरी भगिनी अत्र सर्वान् पाठान् पाठयामि. अत्र यदि प्रश्नं पृच्छामश्चेत् प्रश्नवाचकवाक्यं किं भवति अत्र वदतु.
काः पाठाः, काः पाठान्,
तान् पाठान्, कान् पाठान् पाठयामि. यदि पिता पुत्रं पृच्छति चेत् भवन्तं पाठयामि परन्तु कान् पाठान् पाठयामि इति प्रश्नं पृच्छति चेत् तस्य उत्तरं किं भवति? सर्वान् पाठान् पाठयामि. इत्युक्ते अत्र सर्वशब्दं न दत्तमस्ति. परन्तु अहं अग्रिमे सप्ताहे करपत्रं प्रेषयामि सर्वेषां कृते. सर्वशब्दं त्रिषु लिङ्गेषु भवति, तदपि सम्यक् रीत्या कण्ठस्थीकरणीयम्. अनन्तरं अस्माकं पार्श्वे एकं करपत्रमस्ति, सर्वनाम सर्वनाम्नां द्वितीयाविभक्त्यन्तरूपाणि इति करपत्रं पुरतः स्थापयन्तु सर्वे. अत्र सुबारो महोदय, भवतः पार्श्वे करपत्रमस्ति वा?
आम् अस्ति.
तत्र किम् अस्ति इति पठतु.
सर्वनाम्नां द्वितीयविभक्तिरूपाणि.
अत्र महोदय एकवारं सः, तम् इति वदतु. सर्वे सर्वे तम् अनुसरन्तु, अनुसरणं कुर्वन्तु. इत्युक्ते सः वदति, सः, तं, भवन्तः सर्वे अपि वदन्तु तथा एव. यु हेव् टु रिपीट् वाट् हि सेस् जस्ट् फर् वन्. वदतु महोदय.
प्रथमाविभक्ति सः, द्वितीयविभक्ति तं.
सः तं भवति द्वितीयविभक्तौ, तथा एव सः, तं. सर्वे वदन्तु.
सः,
सः, तं. सर्वे वदन्तु.
सः, तं.
किञ्चित् उच्चारयन्तु. अनन्तरं महोदय.
एषः, एतम्.
सर्वे एककण्ठे एव, मुक्तकण्ठे. वदतु महोदय.
कः, कम्.
कः, कम्.
कः, तम्.
सः, ताम्.
ताम्.
एषा, एताम्. एतत् एतत्
एतत् एतत्
भवान् भवन्तं भवती भवतीं अहं माम्
अहम्
माम्
महोदय अत्र उत्तमपुरुष कर्तृपदं किं वदतु
अहम्
अहम् अपि च अन्यानि पदानि पुरुषः कः अत्र अन्यानि सर्वाणि पदानि प्रथमपुरुषे एव सन्ति अत्र पुंलिङ्गपदानि कानि
सः एषः सः
अपि च
भवान्
स्त्रीलिङ्गपदानि कानि
सा एषा सा भवति
उत्तमम् अपि च द्वितीयबहुवचनरूपाणि अपि वदतु ते तान्
बहुवचनं प्रथमाविभक्ति ते द्वितीयविभक्ति तान् ते तान्
सर्वे वदन्तु
एते एतान्
एतान्
के कान्
के
कान्
एताः एताः
एताः
काः काः
काः
काः
तानि तानि
तानि
तानि
एतानि एतानि
एतानि
एतानि
तानि तानि
तानि
तानि तानि
भवन्तः भवतः
भवन्तः
भवन्तः
भवतः
भवत्यः भवतीः
यदि अहं अत्र अहम् एकं प्रश्नं पृच्छामि भवन्तः सर्वे अपि भवतः इति पदं श्रुतवन्तः वा प्रथमे पुटे एव अभ्यासपुस्तकस्य प्रथमे पुटे वयं जानीमः भवतः नाम किं भवतः नाम किम् इति दत्तमस्ति तत्र भवतः इति पदं षष्टिविभक्तौ अस्ति परन्तु भवान् शब्दस्य द्वितीया विभक्ति बहुवचनम् अपि भवतः इत्युक्ते भवतः इति पदं षष्टिविभक्ति एकवचने अपि भवति द्वितीयाविभक्ति बहुवचने अपि भवति अत्र द्वितीयाविभक्ति बहुवचनं तत्र एतत् अन्यः विषयः परन्तु मा विस्मरन्तु वदतु महोदय
भवत्यः भवतीः वयम् अस्मान्
उत्तमम् इत्युक्ते अत्र एतानि पदानि बहुवचने सन्ति प्रथमाविभक्तौ ते इति पदस्य बहुवचनरूपं ते इति पदं बहुवचनम् अपि च द्वितीयाविभक्तौ तस्य रूपं भवति तान् इति भवति अधुना वयं किं कुर्मः इत्युक्ते एतानि पदानि योजयित्वा वाक्यरचनां कुर्मः सः तं महोदय भवान् वदतु सः पदं योजयित्वा एकं वाक्यं वदतु सुबर महोदय
सः धावति
सः धावति उत्तमं सः धावति अपि च तम् इति पदं योजयित्वा वदतु
तं
अथवा अहं वदामि अहं वदामि एकं वाक्यं तदनुसृत्य वदतु सः बालकः सः बालकः अस्ति सः बालकः इति प्रथमविभक्तौ अस्ति तस्मिन् वाक्ये परन्तु तत् वाक्यं द्वितीयविभक्तौ कथं रचयामः द्वितीयविभक्तौ इत्युक्ते सः इति पदं तस्मिन् वाक्ये कर्तृपदं परन्तु कर्मपदं योजयित्वा वाक्यं वदतु
तं बालं
तं बाल तं बालं अथवा तं बालकं
तं बालकं
तं बालकं तत्र केवलं भवान् तं बालकं तत्र कर्मपदमेव उक्तवान् परन्तु तत्र कर्तृपदम् अपि भवेत् क्रियापदमपि भवेत् वाक्यं सम्पूर्णं वाक्यं रचनीयम् कादम्बरी भगिनी वदति वा
तं ददातु
तं ददातु तं ददातु तत्र कर्तृपदमपि योजयतु सर्वनामपदमस्ति तं ददातु उत्तमं वाक्यं परन्तु तं बालकं ददातु अथवा किं वदामः अहं तं बालकं पश्यामि अहं तं बालकं पश्यामि इत्यस्मिन् वाक्ये कर्तृपदमस्ति कर्मपदमस्ति अपि च क्रियापदम् अपि च वयं सर्वनामपदमपि योजयित्वा वयं वाक्यं रचितवन्तः तथा वदन्तु सर्वे अहं तं बालकं पश्यामि द्वितीयं पदद्वयम् एषः एतं लक्ष्मीभगिनी वदतु एषः एतं पदद्वयं योजयित्वा
एषः बालकः
एषः
बालकः
एषः बालकः बालकः वयम् उक्तवन्तः अतः एषः ग्रन्थः एषः ग्रन्थः एषः ग्रन्थः अस्ति एषः ग्रन्थः इति तस्मिन् वाक्ये एषः ग्रन्थः तत्र ग्रन्थः इति पदं कर्तृपदं परन्तु तस्य परिवर्तनं कृत्वा द्वितीयविभक्तौ वदतु
एतं ग्रन्थं ददातु
एतं ग्रन्थं ददातु अथवा एतं ग्रन्थं पठतु एतं ग्रन्थं पठामि उत्तमम् अधुना अत्र सुब्बारा महोदय भवान् करोतु तत्र सा इति पदं योजयित्वा वदतु सा ताम्
सा बालिका
सा बालिका
ताम्
अहं पृच्छामि का बालिका तस्य उत्तरं किं भवति का बालिका सा बालिका
का बालिका सा बालिका
इत्युक्ते अहं केवलं पृच्छामि का बालिका कस्मिन् कस्याः विषये भवान् वक्तुमिच्छति तदर्थमेव अहं पृष्टवती. सा बालिका उत्तमम्. अनन्तरं तां
तां तां पेटिका
अत्र सा प्रथमविभक्तौ सा बालिका इति उक्तवान्, परन्तु तस्य परिवर्तनं कृत्वा द्वितीयविभक्तौ वाक्यं रचयतु. कः वदति? अत्र लक्ष्मीभगिनी वदति वा? किं भवति? अहम् अथवा अहम् अथवा भवान् तां बालिकां पृच्छतु. तां बालिकां पृच्छतु इति अपि वक्तुं शक्नुमः. आस्क् दट् गर्ल्. अनन्तरं अपि च अत्र भवान् भवन्तं योजयित्वा वाक्यं रचयतु महोदय. भवन्तं भवान् भवन्तं वदति वा? कः वदति अत्र? कः जानाति? कर्तृपदस्य परिवर्तनं कृत्वा वक्तव्यं.
भवान् वदति.
भवान् वदति उत्तमम्, उत्तमं वाक्यम्. अनन्तरं तस्य द्वितीयरूपं योजयित्वा अन्यं वाक्यं रचयतु भगिनि. अहं
भवती अहं भवन्तं
भवन्तं पृच्छामि. अहं भवन्तं पृच्छामि. उत्तमम्. अहं भवन्तं पृच्छामि. अपि च भवती इति पदं योजयित्वा वदतु. भवती अपि च भवतीं.
भवती वदति.
भवती भवती वदति. उत्तमम्. अनन्तरम्
अहं भवतीं पृच्छामि.
अहं भवतीं पृच्छामि. तथा इत्युक्ते अत्र अस्मिन् वाक्ये अहं भवतीं पृच्छामि इत्यस्मिन् वाक्ये भवतीम् इति पदं तस्मिन् वाक्ये कर्मपदं भवति. इत्युक्ते सर्वदा कर्तृपदानि प्रथमाविभक्तौ भवन्ति, कर्मपदानि द्वितीयविभक्तौ भवन्ति. अपि च अस्माकं पार्श्वे अन्यं करपत्रमस्ति, द्वितीयं करपत्रम् अभ्यासः इति अन्यम् अभ्यासं दत्तमस्ति. अत्र सर्वे एकम् एकं वाक्यं पूरयन्तु. अत्र प्रथमतया भगिनी लक्ष्मी भगिनी भवती एव करोतु द्वितीयं करपत्रं.
रमेशः.
तदेव प्रथमतया सूचनां पठतु.
आवरणे दत्तानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत. लिखत.
लिखत.
लिखत.
लिखत.
उदा सः प्रातः पत्रिकां कवितां ग्रन्थं च पठति.
तत्र पत्रिका इति पदस्य रूपं किं भवति?
पत्रिकाम्.
अपि च कविता?
कवितां.
ग्रन्थः?
ग्रन्थम्.
किमर्थं तथा?
द्वितीय
इत्युक्ते सः प्रातःकाले किं किं पठति इति अत्र दत्तमस्ति. सः प्रातःकाले पत्रिकां पठति, कवितां पठति, अपि च ग्रन्थमपि पठति. अत्र किं पठति इति प्रश्नं पृच्छामश्चेत् तस्य उत्तरम् एव तस्मिन् वाक्ये कर्मपदं भवति, अपि च द्वितीयाविभक्तौ भवति. तदर्थमेव तत्र तथा परिवर्तनं कृत्वा लेखनीयम्. अपि च
रमेशः प्रतिदिन देवं जनकम् अग्रजम् आचार्यं च नमस्करोति.
उत्तमं, तावदेव. कादम्बरी भगिनी द्वितीयं करोतु.
सीता ग्रन्थं सुधाखण्डं द्यूतं दण्डं च नयति.
उत्तमम्, अग्रिमं करोतु.
देवकः आम्रं पनसं नारिकेलं च सिञ्चति.
सिञ्चति, भवती जानाति वा सिञ्चति इत्युक्ते किम्?
अहं न जानामि.
कः वदति सिञ्चति इत्युक्ते किम्? अत्र कः वदति, कोऽपि जानाति वा सिञ्चति इत्युक्ते वृक्षाणां कृते जलं ददाति. अत्र किं दत्तमस्ति? सेवकः जलं ददाति. कस्मै ददाति? आम्रं पनसम्. आम्रम् इत्युक्ते आम्रफलम्, आम्रवृक्षं, वृक्षः. पनसः इत्युक्ते फलविशेषः, एकः फलविशेषः. अपि च नारिकेलः, तदपि वृक्षविशेषः अथवा फलं ददाति. अत्र किञ्चित् इत्युक्ते सेवकः जलं ददाति वृक्षाय, आम्रवृक्षाय, अपि च पनसवृक्षाय, नारिकेलवृक्षाय जलं ददाति. तदेव सिञ्चति इति नूतनं क्रियापदम्. अनन्तरं करोतु.
रामः दशरथं सुमन्त्रं विशिष्टं च वशिष्ठं च नमस्करोति.
उत्तमं, नमस्कृतवान्. उत्तमं. रामः दशरथं, रामस्य पिता कः? दशरथः. रामस्य गुरुः कः?
वसिष्ठः.
अपि च रामस्य मन्त्री अहं चिन्तयामि, सः, तस्य नाम अस्ति सुमन्त्रः. रामः दशरथं, सुमन्त्रम्, अपि च वसिष्ठं नमस्कृतवान्. उत्तमम्. अत्र उत्तमं भगिनि. अनन्तरम् अत्र सुचित्रा भगिनी भवती करोतु अग्रिमं वाक्यं.
भगिनि, सज्जनं धर्मं परोपकारं सदाचारं च इच्छति.
तत्र अत्र भवती परिवर्तनं सम्यक् रीत्या कृतवती, परन्तु भवती जानाति वा किमर्थं तथा वक्तव्यं?
सज्जनः, गुड् पीपल्, और् धर्मं, परोपकारं, डोनेशन् या बेनिवलेन्स्. ओके,
अत्र अहं किं पृष्टवती इत्युक्ते अत्र प्रकोष्ठे धर्मः, परोपकारः, सदाचारः इति दत्तमस्ति, परन्तु भवती परिवर्तनं कृतवती, किमर्थम्?
सज्जनः धर्मं, परोपकारं, सदाचारं च इच्छति.
अहं परन्तु अहं पृच्छामि किमर्थं भवती परिवर्तनं कृत्वा उक्तवती?
ओके, सज्जनः वट् डु दे वाण्ट् आफ् ओके आब्जेक्ट्स् द्वितीया विभक्ति सो
उत्तमम्
ओके
उत्तमम् उत्तमं सज्जनः सज्जनः किं किम् इच्छति वदतु सज्जनः किं
सज्जनः सज्जनः धर्मं परोपकारं सदाचारं च इच्छति
उत्तमं सज्जनाः साधारणतया धर्मम् इच्छति अपि च परोपकारम् इच्छन्ति सज्जनाः अपि च ते सदाचारम् इच्छन्ति अत्र किम् इच्छति तस्य उत्तरमेव अत्र दत्तमस्ति अग्रिमं वाक्यं
भगिनी आपणतः मालां पत्रिकां पादरक्षां स्थालिकां च आनीतवती
आनीतवती भगिनी किं किम् आनीतवती आपणतः
मालां पत्रिकां पादरक्षां स्थालिकाम्
उत्तमं पादरक्षा इत्युक्ते
फुट्वेर्
पादरक्षा
फुट् प्रोटेक्षन् ऐ डोण्ट् नो भगिनि
पादरक्षा इत्युक्ते कः जानाति पादरक्षा इत्युक्ते भगिनि अत्र भगिनी आनीतवती कानिचन वस्तूनि आनीतवती कुतः आनीतवती वेर् डिड् शी ब्रिङ्ग् भगिनी आपणतः आनीतवती किं किम् आनीतवती मालां पत्रिकां पादरक्षाम् अपि च स्थालिकाम् आनीतवती अत्र स्थालिका इत्युक्ते किम्
प्लेट्
उत्तमम् अग्रिमं करोतु
वन् क्विक् क्वश्चन् भगिनि पादरक्षां इस् इट् स्पेसिफिक्लि शूस् या एनी फुट्वेर्
एनी फुट्वेर् भगिनि
थेङ्क् यू बालकः लेखनीम् अङ्कनीं कादम्बरीं सूचीं च कृतवान्
अत्र पदं किं दत्तमस्ति क्रीतवान्
क्रीतवान्
अत्र अत्र क्रियापदमस्ति क्रीणाति अहं पुस्तकं क्रीणामि यथा वयं जानीमः लट्लकाररूपाणि अहम् अन्नं खादामि तथा एव अत्र अहम् आपणतः पुस्तकं क्रीणामि इति क्रियापदं क्रियापदात् क्रीतवान् इति तवत् प्रत्ययान्तरूपम् आगच्छति क्रीतवान् क्रीतवती बालकः क्रीतवान् किं किं क्रीतवान्
लेखनीम् अङ्कनीं कादम्बरीं सूचीम्
उत्तमं कादम्बरी इत्युक्ते किं भगिनि अत्र वदतु
कादम्बरी इस् इट् कुड् बि प्रोस् बुक्स् फिक्षनल्
उत्तमं फिक्षन् बुक् कादम्बरी इति एकं पुस्तकम् उत्तमम् इत्युक्ते सः बालकः लेखनीम् अङ्कनीं कादम्बरीम् अपि च सूचीं च क्रीतवान् सूची इत्युक्ते
नीडल्
उत्तमं तदेव अनन्तरं
माता स्यूतां युतकं वेष्टीं शाटिकां च शालयतवती
क्षालितवती उत्तमम् अत्र वयं जानीमः एव अहं वस्त्रं क्षालयामि अहं वस्त्रं प्रक्षालयामि अहं शाटिकां प्रक्षालयामि अत्र प्रक्षालनं अथवा प्रक्षालयति क्षालयति इत्युक्ते किम्
वाशिङ्ग्
उत्तमम् इत्युक्ते अधुना माता किं कृतवती अत्र माता क्षालितवती किं किं क्षालितवती
स्यूतं युतकं वेष्टीं शाटिकाम्
एतानि वस्त्राणि सा क्षालितवती प्रक्षालितवती प्रक्षालनम् अथवा क्षालनं द्वौ अपि समानार्थकपदानि एव माता युतकं भवन्तः जानन्ति एव युतकम् इत्युक्ते किं वदतु भगिनि पुनः एकवारं
युतकम् इत्युक्ते शर्ट्
कैण्ड् आफ् अपि च वेष्टि वेष्टि इत्युक्ते
वेष्टि द वाट् वि वेर् भगिनि स्पेशलि इन् सौत् इण्डिया
वेष्टि इत्युक्ते सम् कैण्ड् आफ् मेन्स् वेर् अपि च शाटिकां क्षालितवती माता शाला मातितवती इत्युक्ते अत्र स्यूतः इति पदं लिङ्गं किं भगिनि
पुल्लिङ्ग् पुल्लिङ्ग पुल्लिङ्ग
पुंलिङ्गं द्वितीयविभक्तिरूपं किं भवति
स्यूतं
स्यूतम् इत्युक्ते किञ्चित् परिवर्तनमस्ति तत्र देर् इस् सम् चेञ्ज् देर् अपि च द्वितीयं पदमस्ति युतकं लिङ्गं किं
नपुंसकलिङ्गं
तत्र किं भवति
युतकं युतकम्
इत्युक्ते तत्र कोऽपि भेदः नास्ति किमपि परिवर्तनं न भवति किमर्थं तथा इत्युक्ते नपुंसकलिङ्गे प्रथमाविभक्तिरूपाणि अपि च द्वितीयाविभक्त्यन्तरूपाणि समानानि तदर्थमेव अत्र युतकम् इति भवति अपि च वेष्टि किं भवति
वेष्टि स्त्रीलिङ्गपदं भगिनि वेष्टीं द्वितीयरूपं
द्वितीयरूपम् अन्तिमं शाटिका इति पदं आकारान्त स्त्रीलिङ्गपदम् इत्युक्ते अत्र पुंलिङ्गे वा स्त्रीलिङ्गे वा अथवा नपुंसकलिङ्गे तत्र द्वितीयाविभक्ति एकवचनरूपं किं भवति साधारणतया एकवचने पुंलिङ्गे वा भवतु स्त्रीलिङ्गे वा भवतु नपुंसकलिङ्गे वा भवतु तत्र द्वितीयाविभक्ति एकवचनरूपं तस्य अन्ते मकारः श्रूयते यु केन् हियर् द सौण्ड् आफ् म एकवचने स्यूतं शाटिकाम् अपि च युतकं वेष्टीं तथा भवन्ति परन्तु बहुवचनरूपाणि भिन्नानि भवन्ति सो देर् इस् वन् कम्फर्ट् हियर् सम् एड्वान्स् ईज़ि थिङ्ग् फर् अस् पुंलिङ्गपदं स्यूतः स्यूतं भवति परन्तु बहुवचनं किं भवति भगिनि वदतु
स्यूताः
न द्वितीयाविभक्ति बहुवचनं
द्वितीयाविभक्ति बहुवचनं स्यूतौ
अत्र अत्र
न जानामि
अत्र अत्र कः वदति उमाशङ्करमहोदय भवान् वदति वा
न जानामि
अत्र सुबारो महोदय भवान् वदति वा
स्यूतां
स्यूतान्
स्यूतान्
इत्युक्ते स्यूतः इति पदस्य बहुवचनरूपं स्यूतान् अत्र अत्र महोदय भवानेव करोतु माता इति वाक्यं बहुवचने वदतु सर्वाणि पदानि बहुवचने वदतु
माता मातरः
न न मातरः अस्तु अस्तु मातरः
मातरः श्रूतान् युतकं युतकान्
अत्र वदतु पश्यतु महोदय अत्र युतकम् इति पदमस्ति तस्य बहुवचनरूपं किं भवति
युतकं युतकानि
युतकान् द्वितीयबहुवचनमपि द्वितीयबहुवचनमपि युतकानि उत्तमं
युतकानि वेष्टी वेष्टीं
वेष्टीम् एकवचने भवति तत्र वेष्टी इति पदं स्त्रीलिङ्गपदं, तत्र वेष्टीः वेष्टीः
वेष्टीः शाटिकान्.
अत्र महोदय पुंलिङ्गे अस्ति चेत् स्यूतान् भवति, परन्तु शाटिका इति पदम् आकारान्त स्त्रीलिङ्गपदम् अतः शाटिकाः शाटिकाः क्षालितवती इत्युक्ते अत्र अस्माकं कृते द्वितीयाविभक्ति एकवचनरूपं सुलभं, परन्तु बहुवचनरूपाणि किञ्चित् भिन्नानि भवन्ति. अत्र स्यूतः द्वितीय बहुवचनं स्यूतान्, युतकं युतकानि, वेष्टी इति पदं वेष्टीः, शाटिका शाटिकाः भवतु. अन्तिमं भवान् एव करोतु अन्तिमं वाक्यम्.
अहं कोलाहलं कलहं चर्चाम् आलस्यं च न इच्छामि.
उत्तमम्. उत्तमं महोदय, सम्यक् रीत्या कृतवान् भवान्. परन्तु अत्र पश्यतु महोदय, कोलाहलः इति पदं कस्मिन् लिङ्गे अस्ति?
कोलाहलः पुंलिङ्गं.
कलहः?
कलहः पुंलिङ्गं.
चर्चा?
चर्चा स्त्रीलिङ्गम्.
आलस्यम्?
आलस्यं नपुंसकलिङ्गम्.
उत्तमं. परन्तु भवान् पुनः एकवारं वाक्यं, तदेव वाक्यं परिवर्तनं कृत्वा वदतु.
अहं कोलाहलं कलहं चर्चाम् आलस्यं च न इच्छामि.
अहं किं किं न इच्छामि, भवान् किं किं न इच्छति? अत्र अत्र एषः वदति, अहं किं किं न इच्छामि इत्युक्ते अहं कोलाहलं न इच्छामि, अहं कलहं न इच्छामि, अपि च अहं चर्चां न इच्छामि,
अहम् आलस्यं न इच्छामि,
आलस्यं न इच्छामि. अत्र इत्युक्ते द्वितीयविभक्ति एकवचनरूपाणि किञ्चित् सुलभानि, सुलभाः अत्र, परन्तु बहुवचनरूपाणि किञ्चित् भिन्नानि भवन्ति, तदेव अत्र. इदानीं पर्यन्तं वयं कर्मपदस्य विषये किञ्चित् अभ्यासं कृतवन्तः. अधुना वयं एकं लेख्यबन्धं पठामः. अत्र एक एस्से अस्ति, एस्से एं पठामः. सर्वेषां पार्श्वे यदि विद्यालयः नाम्ना लेख्यबन्धम् अस्ति चेत् अधुना किञ्चित् पठामः. सर्वे तत् करपत्रं पुरतः स्थापयन्तु. प्लीज् कीप् द हेण्ड् औट्. विद्यालयः, दट् इस् द हेण्ड् औट् दट् वी आर् गोयिङ्ग् टु रीड् नौ. दट् इस् आल्सो अबौट् द्वितीय विभक्ति अथवा कर्मपदम्. उत्तमम्. अधुना उमाशङ्करमहोदय, भवान् पठतु.
एषः अस्माकं विद्यालयः, अस्माकं विद्यालयः विशालम् अस्ति. अत्र पञ्चशतं छात्राः पठन्ति. विद्यालयस्य भवनं सुन्दरं. विद्यालयः पर्वतस्य उपरि अस्ति. विद्यालयस्य वामतः उद्यानम् अस्ति, दक्षिणतः अपि उद्यानम् अस्ति. विद्यालयस्य पुरतः ध्वजस्तम्भम् अस्ति. विद्यालयस्य पृष्ठतः वृक्षाः सन्ति.
उत्तमम्. अत्र कानिचन वाक्यानि सन्ति, अत्र एकः विद्यालयः अस्ति, विद्यालयस्य विषये कानिचन वाक्यानि अत्र दत्तानि. पुनः एकवारं पश्यामः महोदय. अत्र प्रथमं वाक्यमस्ति, प्रथमं वाक्यं किम्?
एषः अस्माकं विद्यालयः.
एषः कः? अत्र एकं चित्रमस्ति, एषः कः?
एषः विद्यालयः.
उत्तमं. केषां विद्यालयः?
अस्माकं विद्यालयः.
अस्माकं विद्यालयः, दिस् इस् अवर् स्कूल्. अस्माकं विद्यालयः, उत्तमम्. अस्माकं विद्यालयः कीदृशः अस्ति? हौ इस् इट्?
विशालः अस्ति.
विशालः अस्ति. अपि च तत्र कति छात्राः पठन्ति?
पञ्चशतम्
इत्युक्ते
500.
उत्तमं. ते किं कुर्वन्ति तत्र? छात्राः किं कुर्वन्ति विद्यालये?
विद्यालये छात्राः पठन्ति.
पठन्ति, ते सर्वे पठन्ति. अपि च विद्यालयं कथमस्ति, अपि च कीदृशः अस्ति
विद्यालयः? विद्यालयः बहु सुन्दरमस्ति.
सुन्दरमस्ति, उत्तमम्. अपि च विद्यालयस्य तत्र अन्यं वाक्यं किं दत्तमस्ति? अग्रिमं वाक्यं
पवित्र पर्वतस्य उपरि अस्ति विद्यालयः.
विद्यालयः पर्वतस्य उपरि अस्ति. कस्य उपरि?
पर्वतस्य उपरि.
पर्वतस्य उपरि अस्ति. अपि च तस्य वामतः किम् अस्ति?
वामतः उद्यानम् अस्ति.
अपि च दक्षिणतः किम् अस्ति?
दक्षिणतः अपि उद्यानमस्ति.
इत्युक्ते विद्यालयस्य वामतः उद्यानमस्ति, अपि च विद्यालयस्य दक्षिणतः अपि उद्यानमस्ति. इत्युक्ते तत्र वयं अन्यरूपेण अपि एतत् वाक्यं वक्तुं शक्नुमः. वि केन् रैट् दिस् सेण्टेन्स् इन् ए डिफ़्रेण्ट् वे. हौ इत्युक्ते कथम् इत्युक्ते अत्र विद्यालयम् उभयतः, विद्यालयम् उभयतः उद्यानमस्ति. तदपि समीचीनं रूपम्. इत्युक्ते यदि वयम् उभयतः परितः इति पदानि योजयित्वा वदामश्चेत् तदा द्वितीयाविभक्तिरूपम् आगच्छति. अत्र उभयतः उद्यानमस्ति, विद्यालयम् उभयतः उद्यानमस्ति इति अपि वक्तुं शक्नुमः. वी केन् क्रियेट् दिस् सेम् सेण्टेन्स् इन् ए डिफ़्रेण्ट् वे. हौ? विद्यालयम् उभयतः उद्यानमस्ति, अथवा विद्यालयस्य वामतः उद्यानमस्ति, दक्षिणतः अपि उद्यानमस्ति. महोदय वदतु, वामतः इत्युक्ते किम्?
वामतः, वामतः लेफ्ट् हेण्ड्, लेफ्ट् सैड्.
लेफ्ट् सैड्. दक्षिणतः?
दक्षिणतः सौत्.
सौत्. तत्र ध्वजस्तम्भः अस्ति, तत् कुत्र अस्ति?
ध्वज विद्यालयस्य पुरतः.
विद्यालयस्य पुरतः किम् अस्ति?
ध्वजस्तम्भम्.
ध्वजस्तम्भः अस्ति. अपि च विद्यालयस्य पृष्ठतः के सन्ति?
वृक्षाः सन्ति.
वृक्षाः सन्ति. वृक्षाः कुत्र सन्ति?
विद्यालयस्य पृष्ठतः.
विद्यालयस्य पृष्ठतः सन्ति. अपि च द्वितीयपरिच्छेदमपि पठतु.
एषा अस्माकम् अध्यापिका रमा. एषा अस्मान् संस्कृतं पाठयामि. सा
न महोदय, अत्र पठतु. अस्मान् संस्कृतं
पाठयति.
उत्तमं.
सा कथां श्रावयति. कारणानि दर्शयति.
अहं चिन्तयामि तत्र पाठ्योपकरणानि
पाठ्योपकरणानि दर्शयति. सुशासितानि सुभाषितानि वाचयति गीतानि अपि गायति सम्भाषणमपि बोधयति अस्माकं गणितध्यापक उत्तमतया गणितं बोधयति सः उत्तरकथनार्थम् अस्मान् प्रेरयति विनोदकणिकाः उक्ता वा सर्वान् हास्यति
सर्वान् हासयति
हासयति
हासयति उत्तमम् अत्र पश्यतु महोदय पुनः एकवारं पङ्क्तिशः पश्यामः अत्र अध्यापिकायाः नाम किम्
अध्यापिकायाः नाम रमा
कस्याः नाम रमा
अध्यापिकाया अध्यापिकानाम्
अध्यापिकायाः नाम
अध्यापिकायाः नाम रमा
रमा सा किं करोति तत्र विद्यालये
विद्यालये संस्कृतं पाठयति
कः संस्कृतं पाठयति का संस्कृतं पाठयति अत्र
रमा संस्कृतं पाठयति
कान् पाठयति
अस्मान्
अस्मान् पाठयति अपि च सा किं करोति इतोपि
कथां श्रावयति
अत्र पश्यतु महोदय सा अत्र संस्कृतं पाठयति इति अस्ति रमा अध्यापिका सा पठति वा अथवा पाठयति वा
पाठयति
पाठयति सा स्वयं न पठति सा छात्रान् पाठयति अध्यापिका रमा छात्रान् पाठयति सा स्वयं न पठति अपि च सा कथां श्रावयति केषां कृते छात्राणां कृते शृणोति शृणोति भवान् जानाति वा
शृणोति
शृणोति तत्र सा न शृणोति सा श्रावयति किं श्रावयति
कथां श्रावयति
कथां श्रावयति छात्राणां कृते अपि च सा पाठ्योपकरणानि दर्शयति पाठ्योपकरणानि इत्युक्ते
गृहपाठं
न अत्र पाठ्योपकरणानि इति पदमस्ति कः वदति तस्य अर्थः कः
पाठ्योपकरणानि
इत्युक्ते अत्र भवन्तः जानन्ति वा टीचिङ्ग् एड्स् इति वदामः
इत्युक्ते
पाठनस्य पाठ इत्युक्ते विद्यालये पाठनार्थं कानिचन वस्तूनि आवश्यकानि तानि वस्तूनि एव पाठ्य उपकरणानि सा किं करोति विद्यालये पाठ्योपकरणानि दर्शयित्वा पाठं पाठयति सम्यक् रीत्या अवगमनार्थं सम्यक् अवगमनार्थं तथा पाठयति अपि च किं करोति सा इतोपि किं करोति
सुभाषितानि वाचयति
यदि सा एव सुभाषितं वदति चेत् किं वदामः सा सुभाषितं वदति परन्तु अत्र किं दत्तमस्ति सा सुभाषितं वाचयति कः वदति अस्य अर्थः आङ्ग्लभाषायाम् अध्यापिका रमा सुभाषितानि वाचयति इत्युक्ते
सुभाषितानि I didn't know what is my subhashitani.
किमपि सुभाषितमेव वदतु महोदय सुभाषितानि वाचयति
वाचयति
वाचयति इत्युक्ते वदतु भगिनि कादम्बरी भगिनि
she
will make you read the quotations. इत्युक्ते सा न वदति सा वाचयति She will make you say those good sayings. अपि च इतोपि किं करोति?
गीतानि गायति.
गीतानि गायति अपि च
सम्भाषणम् अपि बोधयामि.
बोधयति रमा. अध्यापिका सम्भाषणम् अपि बोधयति. किं किं बोधयति? सम्भाषणं. किमर्थं तथा? सा संस्कृतं पाठयति, अतः संस्कृतेन कथं वक्तव्यम् इति, सा सम्भाषणं किं कथं कर्तव्यम् इति सा बोधयति, छात्रान् बोधयति. अपि च तत्र एकः गणिताध्यापकः अपि अस्ति. सः किं करोति?
गणिताध्यापकः उत्तमतया गणितं बोधयामि.
अत्र बोधयामि इति पदं सम्यक्
बोधयति.
गणिताध्यापकः गणितं बोधयति. कथं बोधयति?
कथं
हौ हि विल् टीच्?
कथं
कथं बोधयति गणिताध्यापकः?
अस्माकं अस्माकं गणितज्ञः उत्तमतया
बोधयति. उत्तमतया बोधयति. अपि च गणिताध्यापकः उत्तरकथनार्थम् अस्मान् प्रेरयति. कान् प्रेरयति? अत्र महोदय कान् प्रेरयति?
अस्मान्
प्रेरयति. किमर्थं प्रेरयति?
उत्तरकथनार्थम्
उत्तरकथनार्थं प्रेरयति इत्युक्ते किम्? वाट् डस् लैक् देर् इस् ए मेथ्स् टीचर् इन् दट् स्कूल्, वाट् हि विल् डू?
विल् टीच् एलाबरेट्ली टु अण्डर्स्टाण्ड्.
उत्तमम् इत्युक्ते अत्र उत्तरकथनार्थं प्रेरयति. He will help you to give the answers correctly.
Okay.
अपि च इतोपि किं करोति सः?
विनोदकणिकाग उक्ताय सर्वान् आसयति.
अत्र विनोदकणिकाः इति पदमस्ति. इत्युक्ते किम्?
विनोदकणिका.
उत्तमम्. इतोपि उच्चैः वदतु महोदय. कः वदति? विनोदकणिकाः.
विनोदकणिकाः उक्ताय.
न अहं किं पृष्टवती? विनोदकणिकाः इत्युक्ते अर्थः कः?
जोक्स्.
उत्तमम्. गणिताध्यापकः विनोदकणिकाः उक्त्वा सर्वान् हासयति. उत्तमं महोदय. धन्यवादः. अधुना कादम्बरी भगिनी भवती किञ्चित् वदतु. अत्र प्रथमं वाक्यमस्ति एषा अस्माकम् अध्यापिका रमा. तस्मिन् वाक्ये कर्मपदमस्ति वा? अस्ति वा? न अहं पृच्छामि, अस्मिन् वाक्ये प्रथमे वाक्ये एषा अस्माकम् अध्यापिका रमा इति वाक्यमस्ति. अस्मिन् वाक्ये कर्मपदम् अस्ति वा न वा? न. किमर्थं? कथम् उक्तवती? कथं जानाति भवती? कः वदति? सुबर महोदय भवान् वदति वा अस्मिन् वाक्ये?
अस्माकम् इस् द ऑब्जेक्ट.
न महोदय, अत्र अस्माकम् इति पदं कः जानाति? अस्माकम् इति पदस्य रूपं किम्? अस्माकम् इति षष्ठीविभक्तेः बहुवचनरूपम्. अत्र अस्मिन् वाक्ये अस्मिन् वाक्ये क्रियापदम् अस्ति वा?
न,
अस्मिन् वाक्ये क्रियापदं नास्ति. यदि वयम् इच्छामश्चेत् अस्ति इति क्रियापदं योजयितुं शक्नुमः. इफ् यु रियलि वाण्टेड् टु यूस् ए क्रियापदं, द ओन्लि क्रियापदं दट् वी केन् यूस् हियर् इस् अस्ति. एषा अस्माकम् अध्यापिका रमा अस्ति. वयं जानीमः पूर्वमेव अस्ति इति क्रियापदं कर्मपदं न स्वीकरोति. इत्युक्ते अस्मिन् वाक्ये कर्मपदं नास्ति, अतः एतत् वाक्यम् अकर्मकवाक्यम्. द्वितीयं वाक्यं पठतु भगिनि.
एषा अस्मान् संस्कृतं पाठयति.
अस्मिन् वाक्ये कर्मपदं किम्?
अस्मान्.
अत्र अहं किम् उक्तवती पूर्वमेव, किम् इति पदस्य उत्तरमस्ति चेत् तत् वाक्यं सकर्मकवाक्यम्. अहं वदामि पुनः. सा रमा किं पाठयति?
संस्कृतं पाठयति.
उत्तमम्. इत्युक्ते संस्कृतम् इति पदं तस्मिन् वाक्ये कर्मपदम्. अपि च सा किं श्रावयति, कां श्रावयति?
कथां श्रावयति.
तस्मिन् वाक्ये कथाम् इति पदं कर्मपदम्. अपि च सा किं किं दर्शयति, कानि कानि किं किं दर्शयति इतोपि?
पाठ्योपकरणानि दर्शयति.
उत्तमम्. इत्युक्ते तत्पदं कर्मपदम् तस्मिन् वाक्ये. अपि च सा किं वाचयति?
सुभाषितानि वाचयति.
उत्तमम्. अत्र वदति इति पदं साधारणक्रियापदं, परन्तु वाचयति, सा वाचयति. वयं पूर्वमेव जानीमः पठति पाठयति, तथा एव अत्र वदति वादयति, तथा एव वक्ति वाचयति. अत्र क्रियापदमस्ति वक्ति, परन्तु इदानीं पर्यन्तं वयं न जानीमः, परन्तु अत्र वाचयति इति पदं दत्तमस्ति. तत्र सुभाषितानि इति पदं कर्मपदम्. अपि च सा इतोपि किं करोति, किं किं गायति सा?
सा गीतानि अपि गायति.
सा किं बोधयति?
सा सम्भाषणं बोधयति.
बोधयति. गणिताध्यापकः किं बोधयति?
गणितं बोधयति.
अपि च सा सः कथं हासयति?
विनोदखनिकाः
उक्त्वा
हासयति.
बै टेलिङ्ग् द जोक्स् हिल् मेक् यू लाफ्. भगिनी एतदेव भवति वा भवत्याः विद्यालये अपि? Is this the same thing happening in your school also? उत्तमम्. अत्र पश्यतु, विनोदकणिकाः उक्त्वा सर्वान् हासयति. अत्र हासयति इति पदम् अस्ति. तत्र हास् धातुः अथवा हासयति इति पदम् अत्र निजन्तपदम् इति वदामः. सर्वान् हासयति. गणिताध्यापकः विनोदकणिकाः. अत्र विनोदकणिकाः अस्मिन् वाक्ये कर्मपदं किं भगिनि?
सर्वान्.
सर्वान्. उत्तमम्. अन्यं क्रियापदम्, अन्यं कर्मपदम्?
विनोद विनोदकणिकाः
अत्र विनोदकणिकाः इति पदम् अपि कर्मपदम् अत्र परन्तु किमर्थं तत्र विनोदकणिकाः इति अस्ति तस्य रूपं किं वदतु
द्वितीयविभक्ति
लिङ्गं
बहु बहुवचनं पुल्लिङ्गं
स्त्रीलिङ्गम् अतः एव विनोदकणिकाः अस्ति एकवचने वदतु प्रथमाविभक्ति एकवचनं वदतु
विनोदकणिका
विनोदकणिका उत्तमम् इत्युक्ते सः गणिताध्यापकः किं वदति विनोदकणिकां वदति अथवा विनोदकणिकाः वदति उक्त्वा किं करोति सर्वान् हासयति उत्तमम् अपि च उत्तमं भगिनि सुचित्रा भगिनी भवती करोतु अग्रिमं परिच्छेदं पठतु पठति वा अन्तिमपरिच्छेदः
आं भगिनि वयं विद्यालय आरम्भसमये प्रार्थनाश्लोकान् वदामः वयं विद्यालय आरम्भसमये प्रार्थनाश्लोकान् वदामः ततः प्रमुखवार्ताः शृणुमः अनन्तरं स्वकक्षां गच्छामः सायं पञ्चवादनपर्यन्तं वयं पाठं पठामः मध्याह्ने विरामसमये भोजनविरामस्य समये पातेयां स्वीकुर्मः सायं वयं क्रीडामः क्रीडा आनन्दं ददाति शक्तिम् अपि ददाति शक्तिम् अपि ददाति अनुशासनं बोधयति परस्परमैत्रीं वर्धयति गृहे वयं पाठानं पाठामः
पाठान् पाठामः
गृहे वयं पाठान् पाठामः प्रश्नानाम् उत्तराणि लिखामः श्लोकान् कण्ठस्थीकुर्मः ततः स्वज्ञानं
वर्धयामः
वयं उत्तमाः छात्राः भविष्यामः
उत्तमम् अधुना किञ्चित् पश्येम शीघ्रम् अत्र विद्यालये किं किं भवति इतोपि अत्र दत्तमस्ति विद्यालयस्य आरम्भसमये छात्राः किं कुर्वन्ति किं वदन्ति संस्कृतभाषायां किं वदामः
प्रार्थनाश्लोकान्
इत्युक्ते विद्यालयस्य आरम्भसमये सर्वे छात्राः प्रार्थनाश्लोकान् पठन्ति अत्र प्रार्थनाश्लोकान् इति पदं किं भगिनि
प्रार्थना इस्
अत्र अस्मिन् वाक्ये कर्मपदं किं
श्लोकान् प्रार्थनाश्लोकान्
उत्तमं किं वदामः इत्युक्ते प्रार्थनाश्लोकान् वदामः इति सः वदति अपि च तदनन्तरं ते किं शृण्वन्ति प्रार्थनाश्लोकस्य पठनानन्तरं छात्राः किं किं शृण्वन्ति
प्रमुखवार्ताः
प्रमुखवार्ताः शृण्वन्ति छात्राः अत्र प्रमुखवार्ताः इति पदस्य लिङ्गं किं भगिनि
वार्ताः प्रमुखवार्ताः प्रमुखवार्ता वार्ताः प्रमुखवार्तं वार्तः वार्ताः सो पुल्लिङ्ग् बहुवचनं पुल्लिङ्गम्
अत्र पश्यतु भगिनि अत्र पदमस्ति वार्ता
बहुवचनं स्त्रीलिङ्गं प्रमुखवार्ताः
उत्तमम् इत्युक्ते वयं पूर्वमेव पूर्वमेव ज्ञातवन्तः किं स्त्रीलिङ्गे द्वितीयाविभक्ति बहुवचनं प्रथमाविभक्ति बहुवचनम् इव भवति यथा लता लते लताः लतां लते लताः इत्युक्ते द्वितीयाविभक्ति बहुवचनम् अपि प्रथमाविभक्तिबहुवचनम् इव भवति अतः एव अत्र अस्मिन् वाक्ये प्रमुखवार्ताः इति पदं कर्मपदम् ते किं वयं किं शृणुमः किम् इत्यस्य उत्तरम् अत्र दत्तमस्ति प्रमुखवार्ताः शृण्मः अत्र प्रमुखवार्ताः इति पदं तत्र विसर्गः अस्ति अन्ते विसर्गः अस्ति इति तद्दृष्ट्वा वयं वक्तुं न शक्नुमः वि केनाट् से बिकास् इट् हेस् विसर्ग इन् द एण्ड् वि केनाट् से दट् इट् इस् ए पुंलिङ्गपदं बट् आक्चुवलि दिस् इस् ए स्त्रीलिङ्गपदं वार्ता वार्ते वार्ताः अपि च तृतीयाविभक्तौ वार्तां वार्ते वार्ताः अनन्तरं ते किं कुर्वन्ति स्वकक्ष्यां गच्छामः छात्राः कुत्र गच्छन्ति अत्र अस्मिन् वाक्ये कर्मपदं किं
कर्मपदं गच्छामः
न न क्रियापदं गच्छामः
क्रिया ओके ओके कर्मपदं स्वकक्षां
अनन्तरं ते किं कुर्वन्ति सायङ्काले पञ्चवादनपर्यन्तं ते पाठान् पठन्ति विद्यालये पाठान् पठन्ति अतः उत्तमपुरुषे दिस् इस् आल् इन् द उत्तमपुरुष द होल् एस्से इस् इन् उत्तमपुरुष वयं पाठान् पठामः किं पठामः पाठान् इति पदं किं कदा पठामः
पञ्चवादने सायं पञ्चवादनार्थं
पञ्चवादनपर्यन्तं पठामः मध्याह्ने भोजनविरामसमयः अस्ति तदा किं कुर्मः
पार्थेयं
पाठेयमित्युक्ते कोऽपि जानाति वा पाठेयमित्युक्ते किमपि पानीयं वा अथवा ओदनं भोजनं किमपि भोजनं मध्याह्नसमये विरामसमये छात्राः किञ्चित् खादन्ति पाठेयं स्वीकुर्मः इत्युक्ते किञ्चित् भोजनम् अथवा ओदनं कुर्वन्ति अनन्तरं ते क्रीडन्ति अत्र पाठेयं स्वीकुर्मः तस्मिन् वाक्ये कर्मपदं किम्
कर्मपदं
पाठेयं कदा स्वीकुर्मः कदा स्वीकुर्मः कदा खादन्ति ते छात्राः
मध्याह्ने
मध्याह्ने भोजनविरामसमये खादन्ति अपि च ते किं कुर्वन्ति क्रीडन्ति किं क्रीडन्ति
क्रीडा आनन्दं ददाति
न किं क्रीडन्ति किं क्रीडामः
छात्राः
क्रीडां किमपि क्रीडां कामपि क्रीडां क्रीडन्ति अपि च क्रीडनेन किं भवति तत्र क्रीडा किं ददाति
आनन्दम्
आनन्दं ददाति क्रीडा आनन्दं ददाति अपि च शक्तिं ददाति अस्मिन् वाक्ये कर्मपदं किम्
कर्मपदम् आनन्दं शक्तिम्
उत्तमम् अपि च क्रीडनेन किं किं भवति अपि च अनुशासनं बोधयति अनुशासनम् इत्युक्ते
अनुशासनं बोधयति ऐ डोण्ट् नो भगिनि
कः वदति सुबरं महोदय भवान् वदति वा अत्र
रूल्स् अनुशासनम्
उत्तमम् इत्युक्ते डिसिप्लिन् इत्युक्ते छात्राः क्रीडन्ति परन्तु क्रीडनेन किं भवति आनन्दं ददाति क्रीडा अपि च शक्तिं ददाति अनुशासनं बोधयति अस्मिन् वाक्ये अनुशासनम् इति कर्मपदम् इत्युक्ते अत्र बहूनि पदानि सकर्मकक्रियापदानि अपि च परस्परं मैत्रीं वर्धयति म्यूचुवल् फ्रेण्ड्शिप् विल् ग्रो बिकास् आफ् प्लेयिङ्ग् गेम्स् अपि च क्रीडनानन्तरं ते किं कुर्वन्ति गृहं गच्छन्ति छात्राः गृहं गत्वा किं कुर्वन्ति
पाठान् पठामः
अत्र अस्मिन् वाक्ये पाठान् इति पदं कर्मपदम् अपि च प्रश्नानाम् उत्तराणि लिखामः अस्मिन् वाक्ये कर्मपदं किं भगिनि
प्रश्नानाम् प्रश्नानां
प्रश्नानां तस्य विभक्तिः का कः वदति
प्रश्नं प्रश्नानां बहुवचनं नपुंसकलिङ्गम्
न भगिनि अत्र प्रश्नानाम् इति पदं प्रश्नः इति प्रथमाविभक्तिरूपं प्रश्नः प्रश्नः इति पदस्य षष्टिविभक्ति बहुवचनं रूपं प्रश्नानां प्रश्नानाम् उत्तराणि लिखामः किं लिखामः
उत्तराणि
लिखामः प्रश्नानाम् उत्तराणि लिखामः गृहं गत्वा अपि च ये ये श्लोकाः तत्र विद्यालये रमा अध्यापिका रमा सा उक्तवती सा बोधयति तान् श्लोकान् वयं गृहं गत्वा कण्ठस्थीकुर्मः अपि च छात्राः अतः स्वज्ञानं वर्धयामः किं वर्धयामः स्वज्ञानं वर्धयामः अपि च अस्मिन् वाक्ये कर्मपदं किं भगिनि
स्वज्ञानम्
अत्र स्थूलाक्षरैः दत्तमस्ति अस्मिन् आल् द कर्मपदानि देर् आल् गिवन् इन् बोल्ड् टैप् लेटर्स् दिस् एक्ससैज़् इस् मेण्ट् फर् द्वितीयाविभक्ति टु ऐडेण्टिफै द कर्मपदम् अपि च अन्तिमं वाक्यमस्ति अन्तिमं वाक्यं पठतु भगिनि
वयम् उत्तमाः छात्राः भविष्यामः
वयम् उत्तमाः छात्राः भविष्यामः अस्मिन् वाक्ये कर्मपदम् अस्ति वा नास्ति वा
उत्तमाः छात्राः कर्मपदं नास्ति उत्तमाः
उत्तमम् अस्मिन् वाक्ये कर्मपदं नास्ति इत्युक्ते अत्र भविष्यामः इति कर्म इति क्रियापदमस्ति भूधातुः अकर्मकधातुः अतः सः कर्मपदं न स्वीकरोति अतः अन्तिमे वाक्ये कर्मपदं नास्ति उत्तमम् अधुना किञ्चित् एव अहं वदामि अत्र कादम्बरी भगिनी भवती एतं श्लोकं जानाति वा? शुक्लाम्बरधरं जानाति वा? जानाति वा? एकवारं वदतु.
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये.
उत्तमं भगिनि. अस्मिन् श्लोके एकमेव क्रियापदमस्ति, ध्यायेत्. तदेव क्रियापदं तस्मिन् श्लोके, परन्तु अन्यानि सर्वाणि पदानि कर्मपदानि अपि च विशेषणानि. अस्मिन् श्लोके एकमेव वाक्यमस्ति. वाक्यं किं? विष्णुं ध्यायेत्. कीदृशं विष्णुं ध्यायेत्? शुक्लाम्बरधरम्, अपि च शशिवर्णं, चतुर्भुजं, प्रसन्नवदनं, तादृशं विष्णुं ध्यायेत्. किमर्थं ध्यायेत् इत्युक्ते सर्वविघ्नोपशान्तये ध्यायेत् इति अर्थः. इत्युक्ते तथा एव भवन्तः सर्वे जानन्ति एव, वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं. तस्मिन् श्लोके तत्र वन्दे इति पदं क्रियापदमस्ति, परन्तु अन्यानि पदानि कर्मपदानि, अथवा एकमेव कर्मपदम् अस्ति, कृष्णं वन्दे. तदेव वाक्यं तस्मिन्, परन्तु अन्यानि पदानि कृष्णं इति शब्दस्य विशेषणानि. वसुदेवसुतं कृष्णं अहं वन्दे, अपि च कंसचाणूरमर्दनं कृष्णं अहं वन्दे, जगद्गुरुं कृष्णं अहं वन्दे, देवकी परमानन्दं कृष्णं अहं वन्दे. इत्युक्ते एतानि श्लोक अस्मिन् श्लोके अपि एकमेव क्रियापदमस्ति, अन्यानि पदानि सर्वाणि अपि द्वितीयाविभक्त्यन्तरूपाणि. तथा बहूनि बहवः श्लोकाः सन्ति, भवन्तः सर्वे जानन्ति एव, शान्ताकारं भुजगशयनं, सः श्लोकः अपि तथा एव भवति. इत्युक्ते एतेषु श्लोकेषु एकमेव क्रियापदं भवति, परन्तु अन्यानि सर्वाणि पदानि अपि द्वितीयाविभक्त्यन्तरूपाणि. किमर्थं वदामि चेत् भवन्तः सर्वे एतान् श्लोकान् जानन्ति एव, तदर्थं वदामि. अधुना समयातीतः अभवत्, अत्र स्थगयामः. अग्रिमे सप्ताहे पुनर्मिलामः. धन्यवादः.
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 धन्यवादः भगिनी.